इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। आईसीसी चैंपियंस ट्रॉफी क्रिकेट प्रतिस्पर्धायाः अन्तिमे उत्साह भरिते निर्णायक चक्रे भारतेन विजयो अधिगतः। ह्यः रात्रौ दुबय्याः अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे न्यूजीलैंड दलेन प्रदत्तं 250+200 विजय लक्ष्यमनुगतं भारतीय दलं चतुर्भिः स्तोभैः विजयम् अमुं प्राप्तवत्। अस्मै ऐतिहासिकाय विजयाय राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्र मोदी च भारतीय क्रिकेट दलाय शुभकामनाः प्रदत्तवन्तौ। एकस्मिन् सामाजिक सन्देश पटले राष्ट्रपतिः अलिखत् यत् भारतम् एकमात्रं दलम् अभवत् यत्र त्रिवारं चैंपियंस ट्रॉफी इति प्रतिस्पर्धां विजितवत्। अनया कथितं यत् क्रीडकाः, प्रबन्धकाः, सहयोगी कर्मचारिणश्च अत्रावधौ सर्वोच्च प्रशंसायाः पात्राः सन्ति इति। प्रधानमन्त्रिणा भारतीय दलस्य विजयः एकः असाधारण परिणामो विद्यते इत्युक्त्वा दलं प्रशंसितम्। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्यारभ्य हरियाणा, चण्डीगढ़, पंजाब राज्यानां त्रिदिवसीय यात्रायै प्रस्थिता भविष्यति। स्वयात्रायाः प्रथमे दिवसे राष्ट्रपतिः हिसार नगरे गुरु जम्भेश्वर विज्ञान प्रौद्योगिकी विश्वविद्यालयस्य दीक्षांत समारोहे सहभागं करिष्यति। तस्मिन्नेव दिने असौ ब्रह्मकुमारीस् द्वारा आयोजितस्य स्वर्ण जयन्ती समारोहावसरे राज्यस्तरीयाभियानस्य समग्र कल्याणाय आध्यात्मिक शिक्षा इत्येतस्य शुभारम्भं करिष्यति। तदनु श्वः राष्ट्रपतिः भटिंडा इत्यत्र पंजाब केन्द्रीय विश्वविद्यालयस्य अथ च एम्स संस्थानस्य दीक्षांत समारोहे भागं ग्रहीष्यति। सायंकाले एषा मोहाली नगरे पंजाब प्रशासनेन आयोक्ष्यमाणे नागरिकाभिनन्दन समारोहे सम्मिलिता भविष्यति। संसदः अर्थसंकल्पना सत्रस्य द्वितीयो भागोऽद्यारभ्य समारप्स्यते। सत्रमिदं अप्रैल मासस्य चतुर्थदिनांक पर्यन्तं प्रचलिष्यति। अत्रावधौ सदनस्य 20 उपवेशनानि भविष्यन्ति। वित्तमन्त्री निर्मला सीतारामन इत्येषा अद्य मणिपुर राज्यस्य वित्तीय संकल्प पत्रं प्रस्तोष्यति। अवधेयं वर्तते यत् विगत मासे मुख्यमन्त्रिणः एन बीरेन सिंहस्य त्यागपत्रस्यानन्तरं राज्ये एतस्मिन् राष्ट्रपति शासनं प्रवर्तितम्। अवधेयं वर्तते यत् वित्त संकल्प पत्र सत्रस्य प्रथम चरणं जनवरी मासस्य अन्तिम दिनात् फरवरी मासस्य 13 दिनांक यावत् प्रवर्तितम्। मध्यप्रदेशस्य मुख्यमन्त्री मोहन यादवः अद्य राज्यस्य नवमस्य व्याघ्र संरक्षण क्षेत्रस्य माधव राष्ट्रिय अभयारण्यस्य उद्घाटनं करिष्यति। श्रीयादवः 13 किलोमीटर परिमितायाः पाषाण सुरक्षा भित्तेरपि उद्घाटनं करिष्यति। श्रीयादवेन ह्यः प्रतिपादितं यत् असौ प्रधानमन्त्रिणं नरेन्द्र मोदिनं प्रति आभारभारसहितो वर्तते, यतोहि प्रधानमन्त्री राज्याय एतस्मै नवमं व्याघ्र अभयारण्यं प्रदत्तवान्। यदि पट्टयुतेभ्य व्याघ्रेभ्य 58वं संरक्षितमुद्यानं भविष्यति। अनेनोक्तं यत् शिवपुरी जनपदे स्थितं इदं व्याघ्र अभयारण्यं वन्यजीव संरक्षणं पर्यटनं च संवर्धयिष्यति। अद्य ब्रुसेल्स नगरे प्रस्तावित मुक्त व्यापार सन्धेः कृते भारत यूरोपीय संघयोः मध्ये दशम चरणस्य वार्तालापः आरभते। वार्तायां शेषविषयान् समापयितुं ध्यानं दीयते, येन अस्य वर्षस्य अन्ते सन्धिं निश्चेतुं शक्यते। केन्द्रीय महिला बाल विकास मन्त्रिणः अन्नपूर्णा देव्याः नेतृत्वे भारतीय प्रतिनिधिमण्डलमेकमद्य न्यूयॉर्क नगरे संयुक्त राष्ट्र मुख्यालये समारप्स्यमाणे महिला स्थित्यायोगस्य 69वें सत्रे भागं स्वीकरिष्यति। महिला बाल विकास मन्त्री अत्रावधौ सत्रे एकस्मिन् राष्ट्रिय वक्तव्यं प्रदास्यति इति वार्ताः।